ृणीमहे कातुय्यज्ञाया कातुय्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वन्द्रिगातु भेषजम् शन्नो अस्तु द्विपदे षञ्चतुष्पदे ॐ शान्तिश्शान्तिश्शान्तिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदक सर्वम् यद्भूतैयच्च भव्यम् भूतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतोच्चायाग्रश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्धौ दयित्पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् व्यक्रामत साशनानशने अभि तस्माद्विराडजायत विराजो अधिपूरुषः स जातो अत्यरिच्छत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् भीष्म इधमः शरद्धभिः सप्तास्यासन् परिधयः सप्तसमिधकृताः देवायत्यद्यन्तन्वानाः अवध्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषि प्रोक्षन्न पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संहृतम् वृषदाज्यम् अशोकस्ताग्रश्चक्रे वायव्यान आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वहुतः वृचः सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्माद् यजुस्तस्मादजायत तस्मादश्वाजायन्ता ये केचो भयादतः गावो हजज्ञिरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कथिधा व्यकल्पयन् मुखम् किमस्य गौ बाहु काभूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः भूरो तदस्य यद्वैश्यः पदव्यागशूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पदभ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागमकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा व्यपदन्यदास्ते दाता पुरस्तात्यमुदा जहार शक्रः प्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अदिभ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवरतताधि तस्य द्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्ववाचानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् वनमिच्छन्ति वेदसः यो देवेभ्य आदपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्याद् तस्य देवाः सन्वशे श्रीश्रते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा ॐ शान्तिः शान्तिः शान्तिः।